एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रियसभायाः उपवेशेन गतविक्रमवर्षीयं कोषागारापराध दण्डन द्वितीय संशोधन विधेयकं पारितीकृतमस्ति। ह्यस्तनोपवेशे उपप्रधानमन्त्रिणा विष्णुप्रसाद पौडेलेन प्रस्तुतं प्रतिनिधिसभातः सन्देशं प्राप्तं विधेयकमिदं पारितीकृतमस्ति। उपवेशे सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धं कतिचित् नेपालाधिनियमान् संशोधयितुं निर्मितं एतद् विक्रमवर्षीयं विधेयकं सहकारी सम्बद्धं कतिचित् नेपालाधिनियमान् संशोधयितुं निर्मितं एतद् विक्रमवर्षीयं विधेयकं च प्रस्तुते स्तः। राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदानां प्रश्नान् उत्तरयन् वन वातावरण मन्त्री ऐनबहादुर शाही मध्यवर्ति क्षेत्रे मानवानां वन्यजन्तूनां च मध्ये द्वन्द्वन्यूनीकरणस्योपायान् अंगीकर्तुं वन्यैः पशुभिः न्यूनतया क्षतियोग्यानां कृषेः प्रवर्धनं विधातुं मध्यवर्तिनः क्षेत्रस्य जनतायाः वृत्त्युपार्जयितुं च क्षेमाणां कार्यक्रमाणां संचालनं जायमानमस्तीति अवदत्। उपवेशे सांसदानां प्रश्नान् उत्तरयन् ऊर्जो जलस्रोत सेचनमन्त्री दीपक खड्का नेपाले 25 लक्ष हेक्टर परिमितायां भूमौ सेचनयोग्यायां सत्यामपि 15 लक्ष हेक्टर परिमिता भूमिरेव सेचनस्य सौविध्यं प्राप्तमस्तीति असूचयत्। तत्पूर्वम् उपवेशे सांसदः आपणेषु गुणस्तरहीनानाम् औषधानां खाद्यवस्तूनां च वितरण कार्यस्य रुद्धुं नियमितरूपेण अनुगमनं गुणस्तर परीक्षणं च कृत्वा दोषिणां दण्डनाय सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं सशस्त्र प्रहरी बल नेपाल विधेयकं प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषणीयमिति प्रस्तावः सर्वसम्मत्या स्वीकृतमस्ति। प्रस्तावोऽसौ गृहमन्त्रिणा रमेश लेखकेन प्रस्तुतः आसीत्। उपवेशे प्रतिनिधिसभायाः सचिवः हर्कराज राई राष्ट्रियसभायाम् उत्पन्नम् एतद् विक्रमवर्षीयं तिलगंगा नेत्र विश्वविद्यालयं राष्ट्रियसभायाः सन्देशेन सहितं प्रस्तुतवान्। उपवेशे स्वास्थ्य सेवा सम्बद्धे सार्वजनिक महत्वस्य प्रस्तावे सांसदानां प्रश्नान् उत्तरयन् स्वास्थ्य मन्त्री प्रदीप पौडेलः विपन्नतायाः रेखायाः अवरस्तरीयायाः जनतायाः स्वास्थ्य सुरक्षण कोषेण सह आबद्धतायाः सर्वकारेण विधानस्य विधौ व्यवस्था करणीयेति प्रावोचत्। स्वास्थ्य मन्त्री पौडेलः स्वास्थ्य सुरक्षण कोषस्य स्रोतसः सुनिश्चिततायै योजनाः निर्मीयमाणाः सन्तीति असूचयत्। तत्पूर्वम् उपवेशस्य विशेष समये सांसदः संविधानस्य क्रियान्वयनस्य विधेयनिर्माणस्य सुशासनस्य लोकतन्त्रस्य रक्षायाः वृत्त्युपार्जन सर्जनस्य च विषयेष् सर्वकारस्य ध्यानम् आकर्षयन्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां सगरमाथा संवाद निर्देशक समितेः प्रथमोपवेशः सम्पन्नोऽस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः उपवेशे आगामिनः ज्येष्ठ मासस्य द्वितीय दिवसात् चतुर्थं दिवसं यावत् आयोक्ष्यमाणस्य संवादस्य व्यवस्थापनस्य वैदेशिकानां सर्वकार प्रमुखाणां राष्ट्रप्रमुखादीनां च अतिथीनां निमन्त्रणायाः विज्ञानां सहभागितायाः सद्भावनादूतस्य नियुक्तेः निजक्षेत्रेण सह सहकार्यस्य च विषयेष् विमृष्टमासीत्। उपवेशे प्रधानमन्त्री ओली सर्वेषां क्षेत्राणां सहयोगाय सहभागितायै च संवादं विशिष्टं विधातुम् अनुरुणत्। प्रधानमन्त्री ओली संवादस्य पूर्वकार्यं सर्वथा त्रुटिहीनं भवेद् इत्यत्र बलं प्रादात्। सर्वकारेण गतार्थिक वर्षस्य सर्वकारस्य वार्षिकं प्रतिवेदनं राष्ट्रपतेः समक्षं प्रस्तुतुं निर्णीतमस्ति। अस्यैव चैत्रमासस्य चतुर्थे दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकुर्वन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ प्रतिवेदनमिदं प्रस्तुतुं निर्णीतमासीत् इति असूचयत्। उपवेशेन अस्यैव चैत्रमासस्य चतुर्विंशे दिवसे रविवासरे रामनवमी पर्वणः अवसरे सार्वजनिकावकाशं प्रदातुं निर्णीतमस्ति इति च मन्त्री गुरूङ अज्ञापयत्। सर्वकारेण राष्ट्रिय निकुञ्जेषु आरक्ष्यक्षेत्रेषु संरक्षणक्षेत्रेषु च पूर्वाधार निर्माण सन्दर्भे सर्वोच्च न्यायालयेन विहितम् आदेशं समयानुकूलं विधौ संशोध्य क्रियान्वये अग्रे वर्धिष्यते इति ज्ञापितं वर्तते। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविष्टेन सम्बद्ध पक्षाणाम् उपवेशेन वातावरणं विकासं च सहैव अग्रे वर्धयितुं बाधकान् विधिन् समयानुकूलतया संशोध्य अग्रे वर्धितुं निर्णीतम् वर्तते। उपवेशे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया, ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का, वन वातावरण मन्त्री ऐनबहादुर शाही च धारणा व्यक्तवन्तः। उपवेशेन विकास निर्माणस्य कार्याणां बाधकानां अधिनियमानां संशोधनीय विषयाणां निश्चयनं दशदिनाभ्यन्तरे कृत्वा मन्त्री परिषदः उपवेशे प्रस्तुतुं वन वातावरण मन्त्रालयाय निर्दिष्टम् वर्तते। उत्तर दक्षिण वाणिज्य मार्ग विस्तारिता योजना अन्तर्गतस्य कालीगण्डकी तटीय मार्गस्य बेनी जोमसुम कोरला मार्गखण्डे अधुनावधि प्रतिशतं 85% कार्यं सम्पन्नमस्ति। वर्तमानार्थिक वर्षे संयोजिताः नव योजनाः विहाय एतस्य मार्गस्य भौतिकी प्रगतिः प्रतिशतं 85% सम्भूता अस्ति। राष्ट्रिय गौरवयुतस्य मूलमार्गस्य अन्तर्गतस्य नेपालगंज गुलरिया मार्गस्य अधुनावधि 95% कार्यं सम्पन्नमस्ति। मूलमार्ग निर्देशनालय योजना कार्यालयस्य अनुसारेण नेपालगंज नगरस्य नन्दनी मिल क्षेत्राद् आरभ्य बर्दिया जनपदस्य लालपुर चोक स्थानं यावत् वज्रीकरणस्य कार्यं सम्पन्नमस्ति। लुम्बिनी क्षेत्रं विश्वव्यापी रूपेण शान्तेः आध्यात्मिक पर्यटनस्य केन्द्रत्वेन प्रवर्धयितुम् अद्यतः लुम्बिनी अन्तर्राष्ट्रिय शान्ति महोत्सवः आयोज्यमानोऽस्ति। नेपाल पर्यटन समित्या नेपालस्थितस्य चीनदेशीय दूतावासस्य संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य च सहकारेण आयोज्यमानः महोत्सवोऽसौ आगामिनः वैशाख मासस्य 29 दिवसं यावत् सञ्चालिष्यति। समितेः प्रमुख कार्यकारीधिकृतः दीपक राज जोशी, संयुक्त राष्ट्र शैक्षिक वैज्ञानिक सांस्कृतिक संघटनस्य विश्व सम्पद सूच्यां सूचीकृतायां लुम्बिन्यां समीपस्थितेषु नगरेषु च महोत्सवः आयोज्यमानोऽस्ति इति अज्ञापयत्।